ओम नमो भगवते वासुदेवाय। भगवान उवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षशेषवाक् राजविद्या राजगुह्यं पवित्रमिदमुत्तमं प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्। अश्रद्धधानाः पुरुषा धर्मस्यास्य परं तप अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि। मया कृतमिदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्वस्थितः न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतहृन्न च भूतस्थो ममात्मा भूतभावनः यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमान् तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय। सर्वभूतानि गौन्तेया प्रकृतिं यान्ति मामिकां कल्पक्षये पुनस्तानि कल्पादो विसृजाम्यहम्। प्रकृतिं स्वामभ्रष्टाभ्य विसृजामि पुनः पुनः भूतग्राममिमं ग्रस्त्रमवशं प्रकृतिर्वशात्। न च मां तानि कर्माणि निबध्रन्ति धनञ्जय उदासीनमसक्तं तेषु कर्मसु। मयाध्यक्षेण प्रकृतिः श्रूयते सचराचरं हेतुनानेन कौन्तेया जगद्विपरिवर्तते। अवजानन्ति मां मूढा मानुषं तनुमाश्रितं परं भावमजानन्तो मम भूतमहेश्वरम्। मोघाशा मोघकर्माणो मोघज्ञानविचेतसा राक्षसी वासुरीं चैव प्रकृतिं मोहिनीं श्रदा। महात्मानस्तु मां पार्था दैवीं प्रकृतिमाश्रिता भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमं व्ययम्। सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते। ज्ञानयज्ञेन जाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्त्वेन बोधा विश्वतो मुखम्। अहं क्रतुरहं यज्ञः सदाहमहमौषधं मन्त्रोऽहम् अहमेवाज्यमहमग्निरहं हुतम्। पिताहमस्ति जगतो माता धाता पितामहः वेद्यं पवित्रमोङ्कार रक्षा मैतुरेव च। गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृद् प्रभवः प्रलयस्थानं निधानं बीजमं जयम्। तपाम्यहमहं वर्षं निगृह्णां विसृजामि च अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन। त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ति। ते पुण्यमासद्य सुरेन्द्रलोकमश्रन्ति दिव्यान् दिव्यदेवोगान्। एतं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति। एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामालभन्ति। अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्। येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेया यजन्त्यभिधिपूर्वकम्। अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च। न तु मामभिजानन्ति तत्त्वेनादश्च वन्दिते। यान्ति देवव्रता देवान् पितृन्यान्ति पितृव्रता भूतानि यान्ति भूतेभ्या यान्ति मद्याजिनोऽपि माम्। पत्रं पुष्पं फलं द्वयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः। यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेया तत्कुरु श्रमदर्पणम्। शुभाशुभफलैरेवं मोक्षसि कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि। समूहं सर्वभूतेषु न मे द्वेष्योऽस्तु न प्रियः ये भजन्ति तु मां भक्त्या मयि ते तेषु जाप्यहम्। अपि चेत् सुदुराचारो भजते मामनन्यभाग् साधुरेव समन्तव्यः सम्यग् विवसतो हि सः। क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति। पापयोरयः स्त्रियो वैश्यास्तथा शूद्रास्ते वियान्ति परां गतिम् किं पुनर्ब्राह्मणाः पुण्याः भक्ताः राजर्षयस्तथा अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु मामे वैश्यसि युक्त्वैव मात्मानं मत्परायणः। ओम तत्सत् श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्यादोह्यो नाम नवमोऽध्यायः।